रेडी ओम हिरण्यवर्णम हरिणीं सुवर्णस्तस्त्रजाम चंद्राम हिरण्मयीं लक्ष्मीं जातवेदोम आवह ताम आवह जातवेदो लक्ष्मी मनपगामिनीं यस्यां हिरण्यं बिंदेयं गामस्वं पुरुषाणां अश्वपूर्वां रथमद्यां हसिनाद प्रमोदिनीं श्रीयं देवी मुपहवे श्रीमा देवी जुसुतां कां सोस्मितां हिरण्यप्राकारां माद्रां ज्वलन्तीं तृप्तं तर्पयन्तीं पद्मेस्थितां पद्मवर्णं तामिहोपहवे श्रियं चन्द्रां प्रवासं यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं शरणं प्रपद्ये अलक्षिर्मे नश्यतां त्वं प्रीडे आदित्यवर्णे तपसोधिजातो वनस्पतिस्थो वृक्षोत बिल्वः तस्य फलानि तपसा दुदन्तो या अन्तरा या च बाह्या अलक्ष्मीः उपयेतु मां देवसखा कीर्तिश्च मणिना सह प्रादुर्भूतोऽसि राशेऽस्मिन् कीर्तिं वृद्धिं ददातु मे क्षुत्पिपासां मलं ज्येष्ठां मलक्ष्मीं नाशयाम्यहम् अभूतिं संवृद्धिं च सर्वां निर्णुद मे गृहा गन्धद्वारं दुराधर्षं नित्यपुष्टां करिष्णीं ईश्वरीं सर्वभूतानां तामिहोपहवै श्रियं मनसः काममाकूतिं वाच सत्यमसीमहि पशूनां रूपमन्यस मयि श्रीसेतं यशः कर्दमेण प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कुले मातरः पद्ममालिनीं मातरं पद्ममालिनीम् आपः सृजन्तु स्निग्धानि चिकलित बस मे गृहे निच मे निच देवीं मातरं श्रियं वासय मे कुले आद्रां पुष्करणीं पुष्टिं पिङ्गलं पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह आद्रां यः कर्णीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ताम आवह जातवेदो लक्ष्मी मनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्यो स्वां बिन्देयं पुरुषानहं यशुचि प्रयतो भूत्वा जुहुयाद्यज्वमन्वहं सूक्तं पञ्चदशर्षं च श्रीकामः सततं जपेत् अंडरस्टैंड